इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। बिहार विधानसभा निर्वाचनस्य प्रथमे चरणे 66.64% यावत् मतदानम् अभिलिखितम्। अनेन निर्वाचनेन ईवीएम यन्त्रे आहत्य 14.3% यावत् प्रत्याशिनां भाग्यं पिहितम्। अस्मिन् चरणे ये प्रमुखाः नेतारः स्पर्धायाम् आसन् तेषु भाजपानेतारौ उपमुख्यमन्त्री सम्राट चौधरी, विजयकुमार सिन्हा इत्येतौ नीतीशकुमारस्य मन्त्रिमण्डलस्य 16 मन्त्रिणः, आरजेडी नेता तथा महागठबन्धनस्य मुख्यमन्त्रिपदस्य प्रत्याशी तेजस्वी प्रसाद यादवः च अस्ति। लघुघटनाः विहाय मतदानं प्रायः शान्तिपूर्णम् आसीत्। लखीसरायमण्डले केचन उपद्रवीजनाः उपमुख्यमन्त्रिणः तथा भाजपेति दलस्य प्रत्याशिनः विजयकुमारसिन्हायाः वाहनस्य उपरि मतदानकेन्द्रस्य समीपे आक्रमणं कृतवन्तः। निर्वाचनायोगः घटनैषा गभीरतया स्वीकृत्य डीजीपी विनयकुमारं सम्बद्धानां विरुद्धं कठोराचरणाय निर्देशं प्रदत्तवान्। निर्वाचनायोगस्य अन्ताराष्ट्रिय निर्वाचन आगन्तुक कार्यक्रमस्य अन्तर्गतं 6 देशानां प्रतिनिधयः पटना, मुजफ्फरपुर, वैशाली, नालन्दा इत्येतेषु निर्वाचनक्षेत्रेषु भ्रमणं कृतवन्तः। ते मतदानप्रक्रियायाः निरीक्षणं कृत्वा स्वतन्त्रं, निष्पक्षं, पारदर्शकं च निर्वाचनं सुनिश्चेतुं निर्वाचनायोगेन कृतानाम् उपक्रमाणां प्रशंसां कृतवन्तः। प्रधानमन्त्री नरेन्द्रमोदी अद्य नवदिल्ल्यां वन्दे मातरम् इति राष्ट्रगीतस्य 125 वर्षाणां पूर्त्यवसरे वर्षपर्यन्तस्य स्मरणोत्सवस्य उद्घाटनं करिष्यति। अस्मिन् अवसरे सः स्मारक प्रैष्य चिटिकायाः मुद्रायाः च विमोचनं करिष्यति। सामाजिकान्तर्जालीयपटले एकस्मिन् सन्देशे प्रधानमन्त्री श्रीमोदी उक्तवान् यत् अयं दिवसः प्रत्येकस्य भारतीयस्य कृते महत्वपूर्णः अवसरः अस्ति इति। अस्मिन् उत्सवे सार्वजनिकस्थानेषु वन्दे मातरम् इत्यस्य पूर्णसंस्करणस्य सामूहिकगायनं भविष्यति, यत्र समाजस्य सर्ववर्गस्य जनानाम् उत्साहपूर्णसहभागिता भविष्यति। वन्दे मातरम् इत्यस्य रचना वंकिमचन्द्र चटर्जीवर्येण अक्षयनवम्यां तिथौ 75.8 वर्षे नवम्बर मासस्य 7 दिनांके कृतासीत्। मातृभूम्यां बलस्य, समृद्धेः, देवत्वस्य च प्रतीकरूपेण आह्वयन् गीतमिदं भारतस्य एकतायाः, राष्ट्रिय गौरवस्य च चिरस्थायि प्रतीकम् अभवत्। भारत लक्जमबर्ग देशौ विज्ञान प्रौद्योगिकी अन्तरिक्ष अन्वेषण क्षेत्रेषु सहयोगं सुदृढं कर्तुं प्रतिबद्धतां पुनः दृढीकृतवन्तौ। नवदिल्ल्याम् एकस्मिन् सम्मेलने विज्ञान प्रौद्योगिकी मन्त्री डॉ जितेन्द्र सिंह, लक्जमबर्ग नगरस्य ग्रैंड डची इत्यस्य राजदूतः क्रिश्चियन बीवर वर्यः च यूरोपीयापणेषु भारतीय स्पेस स्टार्टअप इत्येतं प्रवर्धयितुं मार्गाणाम् अन्वेषणे विचारं कृतवन्तौ। विज्ञान प्रौद्योगिकी मन्त्रालयेन उक्तं यत् सभा साइबर सुरक्षा, क्वांटम प्रौद्योगिकी, कृत्रिम बुद्धि इत्यादिषु नवान्वेषण क्षेत्रेषु संयुक्त उपक्रमान् अग्रे नेतुं केन्द्रितम् आसीत्। केन्द्रीय वित्तमन्त्री निर्मला सीतारामनः अद्य असम राज्यं गमिष्यति। द्विदिवसीय यात्रायां केन्द्रीय वित्तमन्त्री गुवाहाटी नगरे द्वयोः प्रमुखयोः परियोजनयोः उद्घाटनं करिष्यति, सहैव राज्य विश्वविद्यालयस्य शिलान्यासं च करिष्यति। गुवाहाटीनगरे केन्द्रीयमन्त्री अत्याधुनिक नदी टर्मिनल इत्यस्य, गुवाहाटी गेटवे टर्मिनल इत्यस्य, गुवाहाटी रिवरफ्रंट परियोजनायाः च उद्घाटनं करिष्यति। भारत ऋतु विभागेन अद्य तमिलनाडु, पुदुचेरी, करैकल प्रदेशेषु पृथक् पृथक् स्थानेषु प्रचण्ड वृष्टेः पूर्वानुमानं प्रकटितम्। विभागेन उक्तं यत् आन्ध्रप्रदेशे, केरले, माहे, दक्षिणान्तरिक कर्णाटके च केषुचित् स्थानेषु विद्युद्योतनेन सह निम्नवृष्टेः सम्भावना अस्ति। क्रिकेट क्रीडायाम् अद्य भारतीय हॉकी इति क्रीडायाः 100 वैभवयुत वर्षाणि आचरितुं राष्ट्रव्यापी उत्सवः आचर्यते इति वार्ताः।